ओम नमो भगवते वासुदेवाय। अथ त्रिसप्ततितमोऽध्यायः। श्रीशुक उवाच। अयुते द्वे शतान्यष्टौ लीलया युधि निर्जिताः। ते निर्गता गिरिद्रोण्यां मलिनामलवाससः। क्षुत्क्षामा शुष्कवदना संरोधपरिकर्षिताः। दधिषुस्ते घनश्यामं पीतकौशेयवाससं। श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम्। चारु प्रसन्न वदनं स्फुरन् मकरकुण्डलम्। पद्महस्तं गदा शङ्ख रथाङ्गैरुपलक्षितम्। किरीटहार कटक कटिसूत्राङ्गदाचितम्। भ्राजद्वरमणिग्रीवं निवीतं वनमालया। पिबन्तैव चक्षुर्भ्यां लिहन्तैव जिह्वया। जिघ्रन्तैव नासाभ्यां रम्भन्त इव बाहुभिः। प्रणेमुर्हत पाप्मानो मूर्धभिः पादयोर्हरेः। कृष्णसन्दर्शनाल्लादध्वस्तसंरोधनक्लमाः। प्रससंसुर्ऋषिकेशं गीर्भिः प्राञ्जलयोन्नृपाः। राजान ऊचुः। नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय। प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः। नैनं नाथान् वसूयामो मागधं मधुसूदन। अनुग्रहो यद्भवतो राज्ञां राज्यच्युतिर्विभो। राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः। त्वन्मायामोहितो नित्या मन्यते सम्पदोचलाः। मृगतृष्णां यथा बाला मन्यन्त उदकाशयम्। एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते। वयं पुरा श्रीमदनष्टदृष्टयो जिगीषयास्या इतरेतरस्पृतः। घ्नन्तः प्रजा स्वा अतिनिर्घृणाः। प्रभो मृत्युं पुरस्त्वा विगणय्य दुर्मदाः। त एव कृष्णाद्यगभीररंहसा दुरन्तवीर्येण विचालिता श्रियः। कालेन तन्वा भवतोऽनुकम्पया विनष्टदर्पाश्चरणौ स्मरामते। अथो न राज्यं मृगतृष्णिरूपितं देहेन शश्वत्पततारुजाम्भुवा। उपासितव्यं स्पृहयामहे विभो क्रियाफलं प्रेत्य च कर्णरोचनम्। तं नः समाधिशोपायं येन ते चरणाब्जयोः। स्मृतिर्यथा न विरमेदपि संसरतामिह। कृष्णाय वासुदेवाय हरये परमात्मने। प्रणतक्लेशनाशाय गोविन्दाय नमो नमः। श्रीशुक उवाच। संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः। तानाः करुणस्तात शरण्यः श्लक्ष्णया गिरा। श्रीभगवानुवाच। अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे। सुदृढा जायते भक्तिर्बाढमाशंसितं तथा। दिष्ट्या व्यवसितं भूपा भवन्तरितभाषिणः। श्रियैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणां। है हयो नौशो वेनो रावणो नरकोपरे। श्रीमदाद्भ्रंसिता स्थानात् देवदैत्यनरेश्वराः। भवन्त एतद्विज्ञाय देहाद्युत्पाद्यमन्तवत्। मां यजन्तोऽध्वरैर्युक्ताः प्रजाधर्मेण रक्षथ। सन्तन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवौ। प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ। उदासीनाश्च देहादावात्मा रामाधृतव्रताः। मय्यावेश्य मनः सम्यं मामन्ते ब्रह्म यास्यथ। श्रीशुक उवाच। इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः। तेषां न्ययुङ्क्तपुरुषान् स्त्रियो मज्जनकर्मणि सपर्यां कारयामास सह देवेन भारत। नरदेवोचितैर्वस्त्रैर्भूषणैः स्रग्विलेपनैः। भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान्। भोगैश्च विविधैर्युक्तान् स्ताम्बूलाद्यैर्नृपोचितैः। ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः। विरेजुर्मोचिता क्लेशात् प्रावृडन्ते यथा ग्रहाः। रथान् सदस्वानारोप्य मणिकाञ्चन भूषितान् प्रीणय्य सूनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत्। त एवं मोचिता कृच्छ्रात् कृष्णेन सुमहात्मना। ययुस्तमेव ध्यायन्तः कृता निज जगत्पतेः। जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम्। यथान्वशासत् भगवान्स्तथा चक्रुरतन्द्रिताः। जरासन्धं घातयित्वा भीमसेनेन केशवः। पार्थाभ्यां संयुतः प्रायात् सह देवेन पूजितः। गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारयः हर्षयन्तः स्वसुहृतो दुहृदाम् चासुखावहाः। तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः मेनिरेमागधम् शान्तम् राजा चाप्तमनोरथः अभिवन्द्याथ राजानम् भीमार्जुनजनार्दनाः सर्वमाश्रावयाञ्चक्रूरात्मना यदनुष्ठितम् निशम्य धर्मराजस्तत्केशवेनानुकम्पितम् आनन्दाश्रुकलाम् मुञ्चन् प्रेम्णा नोवाच किञ्चन। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने त्रिसप्ततितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनुपायिनी।